गुरुब्रह्म गुरुष्णु गुरुदेव महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र रूपस्पर्शलक्षणम् इति किन्तु इदानीं तत्र वयं तेषु लक्षणेषु तत्र ग्राह्यपदम् आगतमिति कृत्वा तत्र ग्राह्यपदयुक्तानाम् इतरलक्षणानां निरूपणम् इति तत्र स्मः कोऽपि स्मारयति वा तत्र रूपलक्षणं किम् आसीत् अपि तत्र स्पर्शलक्षणं किम् आसीत् इति तत्र शोभा भगिनी रूपलक्षणं किम् आसीत् स्थूलरूपेण तत्र रूपम् इति लक्षणे हा
आं महोदय रूपलक्षणे दलसार्थक्यम् इति दृष्टवन्तः तत्र दलसार्थक्ये
तत्र रूपलक्षणवाक्यं किम् इति प्रथमतया वदतु किञ्चित्
तत्र रूपलक्षणं किं तत्र क्षमता महोदय
न तत्र तत्र चित्रं दृष्ट्वा वदतु तत्र
तत्र रूपलक्षणम् इति चक्षुर् निष्ठ
न सर्वं लघु लघुवाक्यं
लघुरूपेण
चक्षुर्मात्रे
तत्र रूपलक्षणे ग्राह्यत्वं भवेत् अग्राह्यत्वं भवेत् अपि च गुणत्वं भवेत् इति
भवेत् समीचीनं ग्राह्यत्वं नाम
ग्राह्यत्वं नाम तत्र चक्षुर् इन्द्रियनिष्ठग्राह्यत्वम् एव भवेत्
चक्षुषा
ग्राह्यत्वं भवेत् अपि च अग्राह्यत्वं चक्षुर्भिन्न इन्द्रियैः भवेत् यथा तत्र त्वगिन्द्रिय
अस्तु समीचीनम्
अपि च तत्र अपि गुणत्वमपि भवेत् गुणः अपि भवेत् किन्तु एतेषु केवलम् एकं स्वीकृत्य अथवा द्वयं स्वीकृत्य रूपलक्षणस्य निरूपणं कर्तुं न शक्नुमः इति दृष्टवन्तः यतोहि तत्र अतिव्याप्तिः भवति अथवा अव्याप्तिः भवति क्षणतां सर्वदा अतिव्याप्तिः एव
उत्तमं भगिनि उत्तमं तथैव उत्तमं भगिनि अतः तत्र ग्राह्यत्वम् इति एव तत्र मूलविषयः आसीत् खलु तत्र ग्राह्यत्वम् आधारीकृत्य ग्राह्यत्वम् आधारीकृत्य तत्र ग्राह्यत्वम् अत्र अस्ति ग्राह्यत्वम् अत्र नास्ति गुणत्वम् अस्ति इति चिन्तनेन वयं तत्र लक्षणं किम् इति साधितवन्तः अस्तु उत्तमं धन्यवादः अस्तु इदानीं योगेन्द्रमहोदय तत्र लक्षणं नाम किं तत्र लक्ष्यम् अस्ति लक्षणं कुत्र अस्ति लक्ष्ये अस्ति हा उत्तमं नाम लक्ष्ये विद्यमानः धर्मः केवलं लक्ष्ये विद्यमानः धर्मः सर्वत्र लक्ष्ये विद्यमानः धर्मः तदेव लक्षणम् इति वदामः उत्तमं हा समीचीनं महोदय स्पर्शे तत्र स्पर्शगुणस्य लक्षणं किम् आसीत् यथा तत्र चक्षुर्मात्रग्राह्यत्वं गुणत्वं रूपस्य लक्षणम् आसीत् तथैव तत्र स्पर्शस्य लक्षणं किम् आसीत्
त्वगिन्द्रियमात्र ग्राह्यगुणः स्पर्शः
स्पर्शः उत्तमं महोदय हा अतः तत्र ग्राह्यत्वं त्वगिन्द्रियेण
भवति
हा अग्राह्यत्वम् अन्यैः इन्द्रियैः तत्र ग्राह्यः न ग्राह्यः इति अपि गुणः अपि अस्ति उत्तमं महोदय हा अतः तत्र लक्षणद्वये अपि वयं दृष्टवन्तः तत्र ग्राह्यत्वं ग्राह्यत्वं नाम ज्ञानं तत्र ग्राह्यं नाम ज्ञेयं नाम ज्ञा तत्र वयं जानीमः ज्ञायते ग्राह्यते नाम ज्ञायते तस्य ज्ञानं भवति चक्षुषा तस्य ज्ञानं भवति चक्षुषा ज्ञायते चक्षुषा ग्राह्यते इति एव हा अस्तु समीचीनं नूतनतया नरसिंहमहोदय धन्यवादः महोदय नरसिंहमहोदय नमस्कारः
नमस्ते महोदय
नमस्कारः उषा भगिनी नमस्कारः उषा भगिनी नमस्कारः चन्द्रमती भगिनी नमस्कारः
नमस्कारः
नमस्कारः भगिनि हा अस्तु अथ इदानीम् अग्रे सरामः तत्र किञ्चित् पठितवन्तः, किन्तु तत्र वर्गद्वयं तत्र सप्ताहद्वयं तत्र वर्गः नासीत् इति कृत्वा तत्र प्रायशः तत्र पुनस्मरणं लाभाय इति. अस्तु तर्हि तत्र तर्हि तत्र मृणालिनी भगिनी भवती एव आरम्भं करोति वा ग्राह्यपदयुक्तानाम् इति आरभ्य उपशीर्षकं. हा
एता ग्राह्यपदयुक्तानाम् इतरलक्षणानां निरूपणम्. एतावता रूपलक्षणप्रकारः स्पर्शलक्षणप्रकारस्य चिन्तितः. इतस्य तर्कसङ्ग्रहे यानि ग्राह्यपदयुक्तानि लक्षणानि तानि सर्वाणि व्याख्यासौकर्याय इहैव चिन्तयामः. अर्थात् अत्र अग्रे अपि अस्माकं तर्कसङ्ग्रहे यत्र यत्र ग्राह्यपदयुक्तानि लक्षणानि वयं पश्येम तानि सर्वाणि व्याख्यासौकर्याय इहैव चिन्तयामः इति.
एकमेकं वाक्यं पठित्वा वदतु. तत्र एतावता वयं किं कृतवन्तः?
रूपलक्षणप्रकारः अनन्तरं स्पर्शलक्षणप्रकारश्च चिन्तितः.
एतावत् तस्य विषयः जातः. समीचीनं. हा इदानीं
इतस्य तर्कसङ्ग्रहे यानि ग्राह्यपदयुक्तानि लक्षणानि तानि सर्वाणि व्याख्यासौकर्याय इहैव चिन्तयामः.
इत्युक्ते किम्?
लक्षणानि यत्र यत्र ग्राह्यपदयुक्तानि लक्षणानि भवन्ति अस्मिन् भवन्ति तानि सर्वाणि व्याख्यासौकर्याय इदानीमेव चिन्तयामः इति.
हा इदानीमेव इह एव इत्युक्ते इदानीमेव. समीचीनम्. अपि लक्षणं नाम यः कोऽपि पदार्थः भवेत् किन्तु तस्य पदार्थस्य लक्षणवाक्ये यदि ग्राह्यपदम् अस्ति चेत् ग्राह्यं ज्ञायते इति कुत्रापि भवति चेत् तस्य व्याख्या इदानीमेव कुर्मः. किमर्थम्?
व्याख्यासौकर्याय.
नाम इदानीं वयं तत्र सम्यक् रीत्या जानीमः नाम खलु तत्र ग्राह्यं तत्र ज्ञानं कथं भवति इन्द्रियेण भवति एतत् सर्वं सम्यक् रीत्या अवगच्छामः. अस्मिन् सन्दर्भे एव यदि अन्यानि लक्षणानि अपि तत्र तेषां परिशीलनं कुर्मश्चेत् सुलभः भवति खलु. यतोहि तत्र स्पर्शः अपि तत्र रूपं तत्र ग्राह्यम् अग्राह्यं ग्राह्यत्वं कुत्र अस्ति ग्राह्यत्वं कुत्र नास्ति इति एतत् सर्वं वयं चिन्तितवन्तः. अतः इदानीं तादृशचिन्तनम् अन्यत्र अपि भवति चेत् इदानीमेव तत् कुर्मः. नो चेत् पुनः तत्र दशवर्गानन्तरं पुनः ग्राह्यत्वम् अग्राह्यत्वम् आगच्छति चेत् वयं चिन्तयामः अस्तु अस्तु अहं ज्ञातवान् ज्ञातवती किन्तु इदानीं स्मरणं नास्ति इति चिन्तनं भवति खलु. अतः इदानीं समापयामः इति. अस्तु समीचीनं. धन्यवादः भगिनी. हा अस्तु अग्रे तर्हि तत्र शुभदा भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः भगिनि. हा अस्तु इदानीम् अग्रे तर्हि तत्र धनश्री भगिनी अग्रे पठति वा?
आम् महोदय. लक्षणे ग्राह्य इति पदमस्ति चेत् प्रत्यक्षनिष्ठविषयिता निरूपितविषयता अथवा तादृशविषयता विषयतावत्त्वम् इति अर्थः लभ्यते. तदर्थे प्रत्यक्षे ग्राह्य इति पदात् पूर्वं यदिन्द्रियं निर्दिष्टं भवति तन्निष्ठजनकतानिरूपितजन्यता प्रदर्श्यते चेत् लक्षणम् अवगतं भवति.
तथा
यथा घ्राणग्राह्यगुणः गुणः गन्धः इति गन्धलक्षणे घ्राण इति इन्द्रियनिर्दिष्टः. अतः घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यता ग्राह्यपदबोध्ये प्रत्यक्षे तादृशप्रत्यक्षनिष्ठविषयितानिरूपितविषयता गन्धे इति अर्थसिद्धिः गुणत्वं च गन्धत्वजातौ अतिव्याप्तिवारणाय निवेशम् अत्र लक्षणे ग्राह्य इति पदमस्ति चेत् तस्य अर्थः किम् इति अत्र अस्ति प्रत्यक्षनिष्ठविषयितानिरूपितविषयता नाम ग्राह्य नाम तत्र तत्समन्वये दत्तमस्ति तस्य प्रत्यक्ष
ग्राह्यं नाम तत्र वयं तत्र
तस्य ज्ञानं भवति वा तस्य
पुस्तकं ग्राह्यते इति वदामः तर्हि तत्र किं तस्य अर्थः कः
पुस्तकस्य प्रत्यक्षं भवति इति
पुस्तकस्य प्रत्यक्षज्ञानं भवति पुस्तकस्य ज्ञानं भवति तर्हि पुस्तकं ज्ञानं वा अथवा भिन्नं वा
न पुस्तकं तत्तु द्रव्यमस्ति द्रव्यस्य प्रत्यक्षं केनापि इन्द्रियेण भवितुं शक्नोति
तर्हि प्रत्यक्षं किन्तु ज्ञानं भिन्नं पुस्तकं भिन्नं वा अथवा पुस्तकमेव ज्ञानं वा
भिन्नमस्ति
तर्हि पुस्तकमपि ज्ञानं तयोः मध्ये कीदृशसम्बन्धः तत्र सम्बन्धः कः
तस्य पुस्तकस्य ज्ञानमस्ति अतः विषयता सम्बन्धः
तावदेव नाम ज्ञानस्य विषयः अस्ति पुस्तकं तावदेव खलु तदेव अत्र दत्तमस्ति खलु नाम प्रत्यक्षम् इत्युक्ते प्रत्यक्षज्ञानम् ज्ञाने किम् अस्ति
पुस्तके विषयता
पुस्तके विषयता अस्ति ज्ञाने प्रत्यक्षज्ञाने विषयिता अस्ति अपि तयोः मध्ये निरूप्यनिरूपकभावः खलु अतः तत्र पुनः पदमस्ति चेत् ग्राह्य इति पदमस्ति चेत् किं तत्र तस्य अर्थः अस्ति
प्रत्यक्षनिष्ठविषयितानिरूपितविषयता
अथवा
तादृशविषयतावत्त्वं नाम एतादृशविषयता यस्मिन् अस्ति तत् ज्ञानम् इति अथ विषयतावत् ज्ञानम् इति
विषयता ज्ञाने नास्ति खलु तत्र वत्
विषयतावत् तत् पुस्तकमस्ति
विषयतावत् पुस्तकमस्ति समीचीनं पुनः त्वम् इति अस्ति चेत् किं भवति
पुनः तत् पुस्तकमेव
न न न विषयता अस्ति विषयतावत् इत्युक्ते
पुस्तकम्
आश्रयः खलु मतु इत्यर्थे नाम आश्रयः अत्र पुस्तकम् इति अस्तु पुस्तकम् तर्हि अधोगमनं वत् इति योजनेन अधोगमनं खलु अत्र किमस्ति
पुनः तत् विषयता एव
खलु तत्र वत्त्वं नाम तदेव वत्त्वं नाम तदेव तर्हि तत्र वत्त्वम् अस्ति चेत् तद् निष्कासयितुं शक्नुमः नाम तत्र विषयता एव नाम विषयता एव इति अर्थः लभ्यते किन्तु वत्त्वम् इति यथा तत्र गन्धवत्त्वम् इति वदामः तादृशलक्षणसमये सन्दर्भे वत्त्वम् इति अस्ति चेत् सम्यक् रीत्या अवगच्छामः अस्तु अस्तु अत्र अस्ति कुत्र अस्ति इति जानीमः तावदेव अस्तु तर्हि विषयतावत्त्वम् अथवा विषयता इति अर्थः लभ्यते अस्तु समीचीनम् अग्रे
तदर्थे प्रत्यक्षे ग्राह्य इति पदात् पूर्वं यदिन्द्रियं निर्दिष्टं भवति तज्जन्यजनकता निरूपितजन्यता प्रदर्श्यते चेत् लक्षणम् अवगतं भवति नाम ग्राह्यपदस्य पूर्वं यस्य इन्द्रियस्य वयम् उल्लेखः कुर्मः तस्य तदिन्द्रियनिष्ठ जनकता नाम तदिन्द्रियजन्यं यत् प्रत्यक्षमस्ति इति तस्य अवगमनं भवति लक्षणस्य अतः जन्यता जन्य इति तत्र पदः पुनः आगच्छति तत्र इन्द्रियनिष्ठजनकता निरूपितजन्यता इति तत्र तस्य अर्थः भवेत्
अस्तु समीचीनं तर्हि तत्र एतत् स्वीकुर्मः तत्र रूपम् इति स्वीकुर्मः रूपं रूपस्य ज्ञानं केन इन्द्रियेण भवति
चक्षुः
हा तर्हि अस्तु तर्हि रूपस्य रूपम् इति विषयः रूपे विषयता अस्ति अपि ज्ञाने विषयता अस्ति अस्तु तर्हि विषयिता अस्ति अस्तु अतः एतेन तत्र लक्षणं सम्यक् रीत्या अवगम्यते वा यदि केवलम् एतद् वदामः
तत्र चक्षुः रूपप्रत्यक्षं जनयति इति अपि तत्र अर्थः अस्ति अतः तत्र जन्यता जनकता अपि दर्शितव्यमस्ति
हा तर्हि तत्र केवलम् एतावत् वदामश्चेत् तत्र प्रत्यक्षम् इति उक्तवन्तः प्रत्यक्षं नाम इन्द्रियं किमपि भवेत् खलु हा तर्हि तत्र अत्र इन्द्रियं किमस्ति रूपस्य विषये चक्षुः समीचीनं हा तर्हि अत्र चक्षुः अस्ति अस्तु तर्हि अत्र चक्षुः अस्ति इत्युक्ते तत्र तर्हि तत्र चक्षुः इति स्वीकुर्मः अस्तु तत्र अस्तु तत् किम् अभवत् एकनिमिषः अस्तु हा तर्हि चक्षुः तर्हि चक्षुः अपि ज्ञानं तयोः मध्ये कः सम्बन्धः
तत्र जन्यता जनकता इति
हा खलु किमर्थम्
चक्षुर्जन्य अस्ति ज्ञानम्
हा चक्षुषा ज्ञानं भवति अतः चक्षुः जनकः ज्ञानं जन्यं हा समीचीनं भगिनि हा अतः एव तत्र ग्राह्य इति पदात् पूर्वं यत् इन्द्रियं निर्दिष्टं भवति तन्निष्ठजनकता निरूपितजन्यता प्रदर्श्यते चेत् नाम एतादृशं चित्रं यदि प्रदर्शयामः चक्षुः तस्मिन् जनकता अस्ति ज्ञाने जन्यता अस्ति इति एतादृशं प्रदर्श्यते चेत् सम्यक् रीत्या वयम् अवगच्छामः खलु लक्षणं यदि तत्र एकमेव दलम् अस्ति इति इदानीं चिन्तनं न चक्षुषा ग्राह्यं रूपम् इति चिन्तयामश्चेत् एतत् सर्वं प्रदर्शयामश्चेत् सम्यक् रीत्या अवगच्छामः तत्र तन्निष्ठ इत्युक्ते तत् इत्युक्ते किम् अत्र
इन्द्रियनिष्ठ
हा यत् इन्द्रियं निर्दिष्टं तदिन्द्रियं तदिन्द्रियं तन्निष्ठजनकता इति अवगतं भवति समीचीनं भगिनि धन्यवादः हा उत्तमं हा अस्तु अग्रे तत्र हा उषा भगिनी इदानीं तत्र अग्रे
अस्तु महोदय यथा घ्राणग्राह्यः गुणः गन्धः इति गन्धलक्षणे घ्राणः इति इन्द्रियनिर्देशः अतः घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यता ग्राह्यपदबोध्ये प्रत्यक्षे तादृशप्रत्यक्षनिष्ठविषयिता निरूपितविषयता गन्धे इति अर्थसिद्धिः गुणत्वं च गन्धत्वजातौ गुणत्वं च गन्धत्वजातौ अतिव्याप्तिवारणाय निवेश्यम् अस्तु महोदय वयं दृष्टवन्तः चक्षुर्ग्राह्यत्वम् इति पूर्वम् उक्तं सो ग्राह्यपथपूर्वं यत् इन्द्रियं निर्दिष्टं तन्निष्ठजनकता निरूपितजन्यता प्रदर्श्यते चेत् लक्षणम् अवगतं भवति इति
तथा एव ग्राह्यम् इति अस्ति तत्र विषयः कः अत्र अत्र घ्राणग्राह्यः गुणः
गन्धः
तर्हि
विषयः गन्धः
विषयः गन्धः गन्धः कुत्र अस्ति
विषयता गन्धे अस्ति.
विषयता गन्धे अस्ति. समीचीनं समीचीनं. विषयिता कुत्र अस्ति?
ज्ञाने.
विषयिता ज्ञाने.
ज्ञाने अस्ति.
विषयिता ज्ञाने अस्ति. समीचीनम्. इदानीं तत्र हा अतः तत्र ग्राह्यो इति तस्य अर्थः
ग्राह्यः इति प्रत्यक्षज्ञानं. ज्ञानं ज्ञाने
ज्ञानं ज्ञानं भवति तस्यापि प्रत्यक्षज्ञानं भवति इति एतावत् उक्तं. तर्हि तस्य अवगमनं जातं. समीचीनं. नाम गन्धः इति विषयः गन्धे विषयता ग्राह्यं तत्र प्रत्यक्षज्ञाने विषयिता इति. समीचीनम्. इदानीं इदानीं ग्राह्यपदात् पूर्वं
ग्राह्यपदात् पूर्वं यत् इन्द्रियं निर्दिष्टं भवति अत्र ग्राण इन्द्रिय ग्राह्यपदात् पूर्वं ग्राण
निर्दिष्टमस्ति.
ग्राणेन्द्रियनिष्ठं तन्निष्ठजनकता निरूपितजन्यता. तन्निष्ठ अत्र ग्राण इन्द्रियनिष्ठजनकता निरूपितजन्यता.
अतः तत्र तेन किम् अवगच्छामः यदि एतत् वदामश्चेत् तेन किम् अवगच्छामः?
घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यता इति उक्तं चेत् लक्षणं गन्धे अस्ति इति जन्यता. घ्राणेन्द्रियनिष्ठजनकता घ्राणेन्द्रियनिष्ठजनकता इति
जनकता कुत्र अस्ति?
ज्ञाने महोदय. जनकता इति घ्राणेन्द्रिय घ्राणेन्द्रियनिष्ठजनकता निरूपितजन्यता इति ज्ञानं.
जन्यता कुत्र अस्ति?
ज्ञानं ज्ञाने अस्ति. प्रत्यक्षज्ञाने
ज्ञाने प्रत्यक्षज्ञाने अतः एव जनकता प्रत्यक्षे अस्ति. अपि प्रत्यक्षं कीदृशमस्ति? प्रत्यक्षम् इति ज्ञानं कीदृशपदम् अस्ति?
प्रत्यक्षम् इति ज्ञानं
तत्र ग्राह्यपद
पदबोध्यम् अस्ति.
हा नाम ग्राह्यपदबोध्यम् ग्राह्यपदं गृह्यते. प्रत्यक्षम् इति यदि वदामः प्रत्यक्षज्ञानम् इति वदामश्चेत् ओ कस्यापि ग्रहणम् अभवत् खलु केनापि इन्द्रियेण कस्यापि विषयस्य ग्रहणम् अभवत् अथ एव ग्राह्यपदबोध्य प्रत्यक्षम् बोध्य प्रत्यक्षं तस्मिन् प्रत्यक्षे जन्यता अस्ति. समीचीनम्.
अग्रे तादृशप्रत्यक्षनिष्ठविषयिता निरूपितविषयता गन्धे. आं महोदय. प्रत्यक्षनिष्ठविषयि ज्ञानस्य कृते विषयिता अस्ति. तत् विषयिता निरूपितविषयता गन्धे विषयतायाः प्रसंस् गन्धे आश्रयः गन्धे अस्ति.
गन्धः
अस्ति.
गन्धः अस्ति. अतः तत्र यावत् यदि ग्राह्यम् इति वदामः तर्हि चित्रे कस्य भागः तत्र चित्रे भागद्वयम् अस्ति इति चिन्तयतु. अत्र दक्षिणभागः वामभागः. तर्हि ग्राह्यः इति पदेन कस्य बोधः भवति? एतस्य भागस्य वा अथवा एतस्य भागस्य वा?
लेफ्ट् वन्
ग्राह्यं ग्राह्यम् इति
ग्राह्यम् इति फैनलि गुणः गन्धः
गन्धः इति क्षम्यतां मम तत्र भागः सम्यक् नासीत्. क्षम्यतां भगिनि. हा हा एकनिमिषः. अस्तु अस्तु तत्र एतत् समीचीनं नास्ति. क्षम्यतां भगिनि. हा अस्तु तत्र एतत् कुर्मः तर्हि तत्र प्रत्यक्षम् इति एतावत् एतत् एकं भागम् अन्यः भागः अस्ति तत्र अन्यः भागः अस्ति तत्र एषः भागः. अस्तु
आं महोदय. द रेड् वन्
उत्तमं. तर्हि ग्राह्यः इत्युक्ते अत्र रक्तवर्णे यः भागः
प्रत्यक्षमपि
गन्धः
गन्धः
नीलवर्णभागः
इन्द्रियनिष्ठजनकत्वं
ग्राण ग्राण इति पदेन यद् निर्दिष्टं तत्र निर्दिष्टं भवति तेन वयं जानीमः तत्र घ्राणेन्द्रियजनकता अस्ति प्रत्यक्षजन्यता अस्ति अतः द्वयोः अपि तत्र अपेक्षा अस्ति केवलं ग्राह्यम् इति वदामश्चेत् तत्र न अवगच्छामः सम्पूर्णरीत्या खलु गन्धः ग्राह्यः इति अस्ति चेत् अस्माकं मनसि कः प्रश्नः उदेति
कस्य इन्द्रियेण
केन इन्द्रियेण ग्राह्यः इति प्रश्नः उदेति अतः ज्ञानं तत्र सम्पूर्णं नास्ति अपेक्षा भवति तत्र ओ तस्य ज्ञानमपि भवेत् इति इच्छा भवति अतः समीचीनं भगिनि अतः तत्र घ्राणग्राह्यः गन्धः इति भवति चेत् सर्वं तत्र लक्षणे सर्वम् अवगच्छामः इदानीं तत्र गुणः इति अपि अस्ति तस्य निवेशनं किमर्थं
गन्धत्वजातौ अतिव्याप्ति अस्ति इत्यनेन अतिव्याप्तिदोषवारणाय गुणत्वम् इति दलमपि वक्तव्यं
वक्तव्यं समीचीनम् अस्तु धन्यवादः भगिनि इदानीम् अन्यं पृच्छामः
धन्यवादः भगिनि
समीचीनम् अस्तु इदानीं तत्र शोभा भगिनी तत्र कथं तत्र गन्धत्वे अतिव्याप्तिः भवति किञ्चित् वदति वा
गन्धत्वे अतिव्याप्तिः
यदि गुणः नास्ति चेत्
गुणः घ्राणेन्द्रियेण एव गन्धः ग्राह्यते
त्यजामः घ्राणेन्द्रियग्राह्यः गन्धः इति अस्ति चेत् तत्र कः दोषः
घ्राणेन्द्रियग्राह्यः ग्राह्यगुणः गन्धः इति
इति अस्ति किन्तु यदि गुणः इति त्यजामः तर्हि दोषः भवति वा इति प्रश्नः
केवलं घ्राणेन्द्रियग्राह्यगन्धः इति अस्ति चेत्
इति इति घ्राणेन्द्रियग्राह्यः घ्राणग्राह्यः इति अस्ति चेत्
घ्राणग्राह्यः गन्धः
इति लक्षणवाक्यम् अस्ति चेत् दोषः भवति वा इति प्रश्नः
हा दोषः भवति यतोहि तत्र गन्धः इति गुणः अस्ति तस्य व्याख्याने लक्षणवाक्ये तस्य किं वदामः तत्र तदपि स्वीकर्तव्यं भवति तत्र गुणः इति
हा किन्तु तत्र सत्यं गुणः इति गन्धे गुणत्वम् अस्ति एतत्तु सत्यं किन्तु घ्राणग्राह्य इति वदामश्चेत् तत्र किं तत्र केवलं गन्धः एव घ्राणग्राह्यः वा
अस्तु क्षम्यतां घ्राणग्राह्य गन्धः एव न अस्तु तत्र अतिव्याप्तिः भवितुम् अर्हति घ्राणग्राह्यः किन्तु अन्यत् घ्राणग्राह्यः गन्धः तु भवति अन्यत्
तर्हि तत्र यदि पुस्तकं पश्यामः पुस्तकं पश्यामः इति चिन्तयतु पुस्तकं पश्यामः तत्र द्रव्यमस्ति खलु पुस्तकं
सत्यं
किन्तु द्रव्यम् इति ज्ञानं भवति वा अथवा पुस्तकम् इति एव ज्ञानं भवति वा अस्माकं
पुस्तकम् इति एव ज्ञानं भवति
तर्हि तत्र अन्यत् द्रव्यं नास्ति किन्तु साक्षात् पुस्तकम् इति एव भवति तर्हि पुस्तके विद्यमानः धर्मः कः
पुस्तकत्वं
पुस्तक तर्हि तत्र पुस्तकत्वम् अपि तस्य ज्ञानमपि भवति खलु
भवति
हा तर्हि पुस्तकम् इति यदि ज्ञानं भवति पुस्तके विद्यमानः जातिः नाम धर्मः पुस्तकत्वं तस्य अपि ज्ञानं भवति
भवति
अपि न्यायशास्त्रे तत्र नियमः येन इन्द्रियेण पदार्थस्य ज्ञानं भवति तेनैव इन्द्रियेण तस्य जातेः अथवा
धर्मः
तस्य अपि ज्ञानं
भवति अस्तु
भवति पुस्तकस्य ज्ञानं चक्षुषा भवति तर्हि पुस्तकत्वम् इति तस्य धर्मस्य अपि जातेः अपि ज्ञानं चक्षुषा भवति तर्हि पुस्तके पुस्तकं चक्षुग्राह्यम् इति वक्तुं शक्नुमः वा
वक्तुं शक्नुमः
पुस्तकत्वं
चक्षुर्ग्राह्यम् एव पुस्तकत्वमपि
पुस्तकत्वमपि अस्तु पुस्तकत्वमपि चक्षुग्राह्यं पुस्तकमपि चक्षुग्राह्यम् इदानीं तत्र पुस्तकत्वं पुस्तकं तत्र एकमेव वा अथवा समानं वा अथवा भिन्नं भिन्नपदार्थः
समानमेव पुस्तकत्वम् इति उक्तत्वात् पुस्तकम् एव इति
पुस्तकत्वं पुस्तक न किन्तु पुस्तकत्वम् अपि पुस्तकं तत्र पुस्तकत्वम् इत्युक्ते पुस्तकं वा
पुस्तकत्वम् इति जातिः अस्ति
किन्तु पुस्तकं
तस्मिन् अथवा तस्यां जातेः एकः एव
केवलं तत्र भिन्नः अथवा समानम् इति का तावदेव
भिन्नः
भिन् हा तावदेव नाम पुस्तकं भिन्नं तस्मिन् विद्यमानः धर्मः भिन्नः खलु
भिन्नः
हा पुस्तकत्वं भिन्नं पुस्तकत्वं जातिः पुस्तकत्वं क्षम्यतां पुस्तकत्वं जातिः पुस्तकं द्रव्यमस्ति पार्थिवद्रव्यं खलु
सत्यं यत् हा पुस्तकत्वम् इति द्रव्यं नास्ति तस्य धर्मः एव भवति
जातिः भवति भिन्नपदार्थः अस्ति
सत्यं
हा इदानीं गन्धः केन इन्द्रियेण ग्राह्यः
घ्राणेन्द्रियेण ग्राह्यः
घ्राणेन्द्रियेण ग्राह्यः घ्राणग्राह्यः गन्धः तत्र गन्धः इति पदार्थः अस्ति तस्मिन् विद्यमानधर्मः कः
गन्धत्वं
गन्धत्वं गन्धस्य ज्ञानं यदा भवति तदा किं गन्धत्वस्य अपि
गन्धत्वस्य ज्ञानमपि भवति
भवति समीचीनं केन इन्द्रियेण गन्धत्वस्य ज्ञानं भवति
यथा भवान् उक्तवान् येन गन्धस्य ज्ञानं भवति तेन एव गन्धत्वस्य अपि ज्ञानं भवति अर्थात् घ्राणेन्द्रियेण एव भवति
घ्राणेन्द्रियेण उत्तमं तर्हि घ्राणग्राह्यः गन्धः
घ्राणग्राह्यः गन्धः गन्धत्वं च
नाम ग्राह्यः इति पुल्लिङ्गे अस्ति इति कृत्वा
गन्धः
घ्राणग्राह्यः किन्तु गन्ध घ्राणग्राह्यम् इत्युक्ते तत्र गन्धः अपि ग्राह्यम् अथवा तर्हि तत्र ग्राह्यः गन्धः अपि अस्ति गन्धत्वमपि ग्राह्यम् अस्ति खलु तर्हि ग्राह्यत्वं गन्धे वर्तते
अपि च गन्धत्वे अपि वर्तते
गन्धत्वे अपि वर्तते उत्तमम् इदानीं प्रश्नः गन्धः अपि गन्धत्वं समानं वा अथवा भिन्नं
भिन्नं यतोहि गन्धत्वम् इति गन्धः इति गुणः गन्धत्वम् इति गन्धे एव अस्ति गुणे एव अस्ति
गन्धे अस्ति किन्तु गुणः नास्ति खलु
गुणः नास्ति
तर्हि गुणत्वं तत्र गुणत्वं गन्धत्वे वर्तते वा
गुणत्वं गन्ध त्वे न वर्तते गन्धे वर्तते गुणत्वं गुणिनि एव वर्तते न तु
उत्तमं उत्तमं भगिनि तर्हि तत्र गुणे एव वर्तते गुणे एव तत्र गुणत्वं भवति तर्हि गुणत्वम् अपि यदि गुणः इति यदि लक्षणवाक्ये स्थापयामः तर्हि वयं वदामः अस्तु लक्ष्ये गुणत्वमपि अस्ति अतः यदि वयं गुणत्वम् इति त्यजामः तर्हि केवलं घ्राणग्राह्यत्वम् इति वदामः तर्हि घ्राणग्राह्यत्वं लक्ष्ये गन्धे अस्ति किन्तु घ्राणग्राह्यत्वम् अन्यत्र कुत्र अस्ति
गुणे अपि अस्ति यतोहि
न गुणे न गुणे न गन्धे अस्ति घ्राणग्राह्यत्वं
गन्धत्वे अस्ति
गन्धत्वे अलक्ष्ये
अपि अस्ति
किन्तु यदि गुणत्वम् इति योजयामः गन्धत्वं गुणः नास्ति इति कृत्वा अपगच्छति
तस्य किं तत्र तस्य अन्वयः नास्ति तत्र घ्राणग्राह्यः गुणः गन्धः इति उक्तत्वात् गन्धत्वस्य विषयः नागच्छति
घ्राणग्राह्यः गुणः इति यदि
गुणः इति गन्धः अपि गन्धे वर्तमानः गुणः एव न तु गन्धत्वम् यतोहि भिन्नः अस्ति इति जातिः
तत्र लक्ष्ये किं किं भवेत् इति वदामः घ्राणग्राह्यत्वमपि भवेत् गुणत्वमपि
भवेत्
गुणत्वमपि भवेत् यत्र गुणत्वमपि अस्ति घ्राणग्राह्यत्वमपि अस्ति तद् लक्ष्ये एव अस्ति लक्ष्ये सर्वत्र अस्ति अलक्ष्ये कुत्रापि
नास्ति
द्वयमपि नास्ति एकं भवेत् किन्तु द्वयमपि अलक्ष्ये न भवेत् इति
भवेत्
तदा एव लक्षणं समीचीनं भवति अस्तु उत्तमं भगिनी धन्यवादः
धन्यवादः महोदय
हा अस्तु अग्रे इदानीं तत्र पद्मा भगिनी नमस्कारः
नमस्ते
नमस्ते भगिनी वक्तुं शक्नोति वा अद्य अस्तु अस्तु तर्हि तत्र अग्रे तत्र द्वितीय रसनग्राह्यो गुणः रसः इति
रसनाग्राह्यः गुणः रसः इति रसलक्षणे अपि तत्र एकचित्रमस्ति रसना रसनानिष्टजनकता निरूपितजन्यता जन्यता आश्रयं प्रत्यक्षं भवति
तन्निष्ठ
अस्तु आश्रयः प्रत्यक्षं तन्निष्ठविषयिता निरूपितविषयथा आश्रयः रसः भवति रसे गुणत्वमपि अस्ति इति चित्रं दर्शयति अत्र वयं पठितवन्तः यत् इन्द्रियं निर्दिष्टं भवति तन्निष्ठजनकतानिरूपितजन्यता प्रदर्श्यते चेत् लक्षणम् अवगतं भवति इति वयं पूर्वं पठितवन्तः तत्र यत्र तत्र प्रत्यक्ष ग्राह्य इति पदात् पूर्वं यत् इन्द्रियं भवति अत्र ग्राह्यपदात् पूर्वं रसनान्द्रियं भवति अस्ति रसेन्द्रियं तद् निष्ठं भवति जनकता
ग्राह्यम् इति पदेन किम् अवगच्छामः नाम रसः ग्राह्यः इत्युक्ते तेन किम् अवगच्छामः वयं
ग्राह्यत्वं रसे अस्ति इति वयं
अवगच्छामः ग्राह्यत्वं नाम तस्य
ग्राह्यत्वं गुणः
न ग्राह्यत्वं रसे अस्ति इत्युक्ते किमस्ति सरलरूपेण ग्राह्यत्वं नाम तस्य
ग्राह्यत्वं
नाम पुस्तकं पुस्तके ग्राह्यत्वम् अस्ति इति उक्तत्वा किम् अवगच्छामः पुस्तकस्य पुस्तके चक्षुग्राह्यत्वं पुस्तकं चक्षुग्राह्यम् इति वदामश्चेत् तत्र किम् अवगच्छामः
रसने रसनेन्द्रियेण ग्राह्यः भवति रसः इति
नाम ग्राह्यः इति पदस्य अर्थः कः इति मम प्रश्नः
ग्राह्य इति पदस्य अर्थः निष्ठ ज्ञानं
हा प्रत्यक्षज्ञानं उत्तमम् उत्तमं हा नाम ग्राह्यं नाम तस्य प्रत्यक्षज्ञानं भवति अथवा अन्यरीत्या प्रत्यक्षज्ञानस्य विषयः अस्ति खलु अतः एव तत्र ग्राह्यमिति पदेन कः तत्र भागद्वयमस्ति तत्र यत् पूर्वं कृतवन्तः तत्र एषः भागः रक्तभागः रक्तवर्णभागः अपि तत्र नीलवर्णभागः ग्राह्यम् इति पदेन कस्य निदर्शनं भवति
ग्राह्यः
तर्हि रसे विषयता अस्ति विषयता प्रत्यक्षज्ञाने अस्ति नाम प्रत्यक्षज्ञानस्य विषयः रसः इति ग्राह्यपदेन अवगच्छामः खलु केवलं ग्राह्यः रसः इति शृण्मः चेत् तत्र इच्छा भवति केन इन्द्रियेण खलु अतः एव तत्र रसनाग्राह्यः
रसः
इति तर्हि वयम् अवगच्छामः रसनेन्द्रियेण भवति ज्ञानं भवति ज्ञानं तर्हि रसनेन्द्रिये जनकता अस्ति प्रत्यक्षज्ञानं कार्यमस्ति जनकता नाम कारणमस्ति रसनेन्द्रियं तेन कारणेन यद् जन्यमस्ति कार्यम् अस्ति ज्ञानं प्रत्यक्षज्ञानं तर्हि प्रत्यक्षज्ञाने कार्यता अथवा जन्यता अस्ति रसनेन्द्रियजनकता अस्ति अपि तत्र गुणत्वम् इति किमर्थं निवेशनीयम्
तत्र अतिव्याप्तिदोषमारणाय गुणत्वम् इति पदमपि दत्तं तद् गुणत्वमिति पदं नास्ति चेत् अन्यत्र अपि गुणत्वम् अस्ति इति कारणात् तत्र अतिव्याप्तिः भवति लक्षणस्य
न गुणत्वम् इति किमर्थं योजनीयं नाम रसनग्राह्यः रसनाग्राह्यः इति रसः इति एव अस्ति चेत् चित्तलक्षणवाक्यं सम्यक् न भवति किम् इति प्रश्नः
तत्र ग्राह्यत्वं रसे अपि अस्ति ग्राह्यत्वं तत्र रसत्वं रसत्वे अपि अस्ति
हा उत्तमं हा रसत्वे जातौ अपि अस्ति उत्तमं किन्तु जातिः गुणः नास्ति इति कृत्वा यदि गुणत्वम् इति योजयामः अतिव्याप्तिदोषः निवारितः भवति उत्तमं भगिनि हा धन्यवादः समीचीनम् अस्तु अग्रे नरसिंह महोदय अग्रे
श्रोत्रग्राह्यो गुणः शब्दः इति शब्दलक्षणे श्रोत्रेन्द्रियं निष्ठजनकता निरूपितजन्यता आश्रयप्रत्यक्षं तन्निष्ठ विषयिता निरूपि विषयता आश्रयशब्द शब्दः तत्र गुणत्वमपि अस्ति शब्दे
तर्हि ग्राह्य इति पदेन किम् अवगच्छामः केवलं ग्राह्यः इति पदेन किम् अवगच्छामः
ग्राह्य इति पदेन तत्र
कः अस्ति ग्राह्यः अत्र
तत्र शब्दः ग्राह्य अस्ति
शब्दः ग्राह्यः अस्ति तर्हि ग्राह्यः शब्दः ग्राह्यः इति इत्यनेन किम् अवगच्छामः
श्रोत्रेन्द्रियष्टजनकता निरूपितजन्यता
तस्य केवलं सरलरीत्या नाम शब्दः ग्राह्यः तत्र श्रोत्रेन्द्रियं नास्ति तर्हि शब्दः ग्राह्यः इति पदेन किम् अवगच्छामः
भवति
शब्दस्य प्रत्यक्षज्ञानं भवति तर्हि अथवा प्रत्यक्षज्ञानस्य विषयः शब्दः भवति उत्तमं हा तावदेव इदानीं श्रोत्रग्राह्य इति केन इन्द्रियेण प्रत्यक्षज्ञानम् अभवत् इति उत्तरं प्राप्नुमः तर्हि तत्र श्रोत्रेन्द्रियेण इति कृत्वा श्रोत्रेन्द्रियं किं भवति कार्यं वा कारणं वा प्रत्यक्ष श्रोत्रेन्द्रियम् अपि प्रत्यक्षं हा कारणं किमस्ति
कारणं शब्दः अस्ति तत्र श्रोत्रेन्द्रियेण
शब्दः नास्ति कारणं शब्दः नास्ति कारणं किमस्ति
कारणं श्रोत्रेन्द्रियं
हा कारणं श्रोत्रेन्द्रियं हा
कार्यमस्ति शब्दं
न कार्यमस्ति
प्रत्यक्षज्ञानं
प्रत्यक्षज्ञानं हा नाम तत्र बाध्यं किमपि अस्ति वाद्यं किमपि अस्ति तेन शब्दस्य शब्दः उद्भवति उत्पत्तिः शब्दस्य उत्पत्तिः बाध्येन भवति किन्तु शब्दस्य श्रोत्रेन्द्रियेण किं भवति अस्माकं श्रोत्रेन्द्रियेण
ज्ञानं भवति तस्य प्रत्यक्षज्ञानं
तस्य ज्ञानं भवति अतः श्रोत्रेन्द्रियं कारणमस्ति ज्ञानस्य खलु उत्तमं हा तर्हि श्रोत्रेन्द्रिये जनकता अस्ति प्रत्यक्षज्ञाने जन्यता अस्ति अपि किमर्थं गुणत्वम् इति निवेशनीयं
गुणत्वम् इति शब्दत्वजाति अपि ग्राह्यते श्रोत्रेन्द्रियेण अतः तत्र गुणत्वम् इति आवश्यकम् अतिव्याप्तिः भवति शब्दत्वजातेः
किमर्थं गुणत्वं शब्दत्वे नास्ति
शब्दत्व इति जाति अस्ति गुणः नास्ति
गुणः नास्ति उत्तमं हा गुणत्वं केवलं गुणे अस्ति उत्तमं महोदय धन्यवादः अस्तु समीचीनं हा अस्तु अस्तु धन्यवादः अस्तु इदानीम् अग्रेसरामः तर्हि धन्यवादः अस्तु तत्र योगेन्द्रमहोदय इदानीं तत्र प्रकृतम् अनुसरामः इति
प्रकृतं प्रकृतम् अनुसार अनुसरामः चक्षुर्मात्र ग्राह्यगुणः रूपम् इति दलत्रयम् रूपलक्षणम् पर्यवसितम् मूले तद्विभागम् आह तत् सप्तविधम् इति सप्तविधम् इत्युक्ते रूपस्य
एकवारं पठतु महोदय तदनन्तरं
शुक्ले शुक्लेत्यादि प्रसिद्धानि चित्ररूपम् इति अतिरिक्तम् यस्य अवयवानां परस्परं विभिन्नं रूपम् अवयवानां परस्परं विभिन्नं रूपं भवति सः अवयवी चित्रः इति उच्यते यथा सन्ति कस्मिंश्चित् पटे पीततन्तूनां पञ्चशतानि श्वेततन्तूनां पञ्च तैः अवयवैः जायमाने तस्मिन् पटे न पित्तं रूपं नापि रक्तं रूपं किन्तु चित्रम् इति अतिरिक्तं सप्तमम् किमपि रूपम् उत्पद्यते इति वैशेषिकाणाम् आशयः
आशयः तर्हि तत्र यदि वयं तत्र रूपस्य लक्षणं नाम चक्षुर्मात्र ग्राह्यः रूपः गुणः रूपम् इति तत्र लक्षणवाक्यम् अस्ति खलु तत्र कस्मिन् पुटे अस्ति तत्र
चक्षुर्मात्र ग्राह्यगुणः रूपः तदनन्तरम् अस्ति तच्च शुक्लनीलपीतरक्त हरितकपिश्च चित्रभेदात् सप्तविधम् इति मूले तद्विभाग कृतमस्ति
तच्च नाम रूपं च तच्च
रूपं च
शुक्लनीलपीतरक्त प्रथममस्ति शुक्लं शुक्लरूपं नीलरूपं पीतरूपं तदनन्तरं
रक्तहरितकपीश
तदनन्तरं चित्र इति सप्तममस्ति चित्र इति भेदात् सप्तविधम् अस्ति तत्र शुक्लनीलपीतरक्तहरितकपीश इति तत् किमस्ति इति जानीमः खलु
आं तत् साक्षात् द्रष्टुं शक्नुमः इति
चित्रम्
आशयः
चित्रम् इति रूपं नाम वर्णः कलर् इति चित्रं नाम किम् इति तत्र न दत्तं खलु चित्रं नाम किम् इति तत्र केवलं तत्र शब्देन न अवगच्छामः किन्तु शुक्ल इति शब्देन किं रूपम् इति अवगच्छामः किन्तु चित्र इति शब्देन न अवगच्छामः अतः इदानीं तत्र तस्य समाधानं दत्तमस्ति तर्हि मूले तद्विभागम् आह नाम तत्र रूपम् इति गुणस्य विभागम् आह तस्मिन् विषये किम् उक्तमासीत् तत् नाम तत् रूपं सप्तविधम् इति उक्तमस्ति तत्र अतः अग्रे शुक्लेत्यादि
प्रसिद्धानि अतः शुक्ल इत्यादीनि इत्युक्ते चित्र वर्जयित्वा अन्यानि षड् रूपाणि सन्ति तत् प्रसिद्धानि अस्ति
प्रसिद्धानि सन्ति उत्तमं महोदय तत् प्रसिद्धानि उत्तमं अग्रे चित्ररूपं
चित्रम् इति अतिरिक्तम् अस्ति तत् भिन्नम् अस्ति तस्य विवरणम् अग्रे
उत्तमं महोदय अतः तत्र तस्य विवरणम् अपेक्षितम् अस्ति अग्रे इदानीम् उदाहरणस्य चित्रं किम् इति उच्यते अस्तु अग्रे
यस्य अवयवानां परस्परं विभिन्नं रूपं भवति सः अवयवी चित्रः इति उच्यते इति व्याख्या अस्ति अधोभागे उदाहरणं दत्तमस्ति
तर्हि तत्र
यस्य अवयवानां परस्परं यस्य अवयवानां परस्परं विभिन्नं रूपं भवति परस्परं विभिन्नं रूपं भवति सः अवयवी चित्रः इति अतः कस्मिन् चित्रपटे
तर्हि अवयवानाम् अवयवाः भवति चेत् तत्र अवयवी अस्ति अवयवी नाम यस्मिन् अथवा यस्य अवयवाः सन्ति सः अवयवी नाम तत्र इनि प्रत्ययः तत्र नाम इनि इनि प्रत्ययः इनि प्रत्ययः अवयवी अवयवी पुल्लिङ्गे अवयवी यस्य अथवा यस्मिन् अवयवाः सन्ति सः अवयवी यथा तत्र भवान् जानाति तत्र विद्यार्थी नाम यस्मिन् विद्यार्थः नाम विद्या मम भवेत् इति तत्र अर्थः विद्या एव अर्थः इच्छति सः विद्यार्थी तत्रापि इनि प्रत्ययः विद्यार्थी विद्यार्थिनी तथैव अवयवी तर्हि
यस्य अवयवः भवन्ति
तस्य अवयवाः भवन्ति किन्तु कीदृश अवयवाः कीदृशाः अवयवाः सन्ति परस्परं
परस्परविभिन्नरूपम्
अवयवानां परस्परं विभिन्नं रूपं भवति नाम अवयवाः समानरूप अवयवाः न भवन्ति किन्तु विभिन्नं परस्परं विभिन्नं रूपं भवति चेत् सः अवयवी चित्रः इति उच्यते अस्तु अग्रे उदाहरणं
यथा सन्ति कस्मिंश्चित् पटे पीततन्तूनां पञ्चशतानि श्वेततन्तूनां पञ्च
तर्हि
अतः कस्मिंश्चित् पटे पीततन्तु तन्तवः सन्ति अपि च श्वेततन्तवः सन्ति पञ्चशतानि पञ्चशतानि अस्तु तैः अवयवैः
पञ्चशतानि तत्र पीततन्तवः सन्ति पञ्चशतानि श्वेततन्तवः
सन्ति इदानीं तैः अवयवैः इत्युक्ते पीततन्तवैः श्वेततन्तवैः जायमाने तस्मिन् पटे न पित्तं रूपं यदा पटस्य निर्माणं भवति पीततन्तवः अपि श्वेततन्तवः योः पटस्य निर्माणं भवति तस्य रूपं पीत नास्ति अपि च श्वेत नापि यत् किमपि अस्ति सः चित्रम् इति उच्यते
इति अस्ति महोदय तर्हि तत्र मिश्ररूपम् इति खलु नाम चित्रं नाम एकमेव रूपं नास्ति किन्तु मिश्ररूपं नाम परस्परविभिन्नरूपं यत्र भवति तत्र चित्रम् इति अतिरिक्तं सप्तमं किमपि रूपम् उत्पद्यते इति कस्य आशयः
वैशेषिकाः वदन्ति
इति वैशेषिकाः वदन्ति उत्तमं अस्तु उत्तमं महोदय अस्तु एतावत् कोऽपि प्रश्नः स्पष्टमस्ति वा
अत्र सप्तमम् इति अस्ति खलु
नाम तत्र यदि भवती तत्र 73 पुटे तत्र यत्र रूपस्य लक्षणवाक्यमस्ति तत् पश्यति चेत् तत्र उक्तमस्ति सप्तविधम् इति शुक्ल इति प्रथमं नील इति द्वितीयं पीत इति तृतीयं रक्त चतुर्थं हरित पञ्चमं कपिश इति षष्ठम् तदनन्तरं चित्रम् इति सप्तमं विधमस्ति
इन्द्रधनुषि ये ये वर्णाः सन्ति
तादृशं तर्हि तत्र अत्र सप्तमं नाम किम् इत्युक्ते तत्र मिश्रम् इति अर्थः एकमेव रूपं नास्ति किन्तु यत्र रूपद्वयं रूपत्रयम् अस्ति चेत् षण्णां मेलनेन यद्भवति तदस्ति न यतोहि सप्तमम् अस्ति चित्रम्
अस्तु
अतः पूर्व पूर्व पूर्वं यत् षड् सन्ति तेषां षण्णां मिश् तत्र मेलनेन यद्भवति तदस्ति चित्रम् समीचीनम् अस्तु धनश्री भगिनी प्रश्नः
आम् महोदय तत्र तत्र षट् वर्णाः एव उल्लिखिताः किल
नाम सप्तविधम् इति उक्तम् सप्तविधम् इति उक्तं रूपस्य
तदस्ति तत्र तस्य षड् वर्णानां विहाय अपि बहवः वर्णाः सन्ति
हा अत्र ते षड् वर्णाः इति ते चिन्तितवन्तः तेषां तत्र नाम तत्र अन्यवर्णाः सन्ति इति ते जानन्ति किन्तु तत्सर्वं प्रायशः तत्र चित्रे भवति इति तेषां चिन्तनम् इति मन्ये भगिनि खलु
तदेव तत्र तत्र षट् वर्णानां मेलनेन यत् उत्पद्यते तस्य तेन चित्रम् इति नामकरणं कृतम् किन्तु तत्र चित्र इति तेन पुनः अवयवी इति उक्तम् यतोहि तत्र भिन्नवर्णानां तत्र तन्तवाः सन्ति इति उदाहरणमस्ति परन्तु एकः एव तन्तु यदि भिन्नवर्णैः भिन्नवर्णानां मिश्रणेन नूतनवर्णेन कृतमस्ति तदत्र न आयाति किल
वयं तन्तोः वर्णमेव तत्र चित्रवर्णम् इति प्रायशः तस्मिन् समये उच्यते इति मन्ये यथा यथा पटस्य वर्णः किम् इत्युक्ते चित्रवर्णम् इति वदामः तथैव यदि तन्तु एव तत्र तत्र मिश्रवर्णेन भवति चेत् तत्र तन्तुः अपि चित्रवर्णम् इति प्रायशः उच्यते किम्
परन्तु एकतन्तु तत्र मिश्रणेन न भवति खलु
सत्यं न अत्र उदाहरणरूपेण एतत् सर्वं केवलं प्रदर्शनाय तत्र ते चिन्तनं तन्तु तन्तु केवलम् एकेन रूपेण नाम एकमेव वर्ण एकः एव वर्णः तन्तौ अस्ति इति चिन्तनं तस्मिन् समये हा वदतु भगिनि
आं जि आं जि मिश्रणं कृत्वा एकतन्तु कदापि न भवति खलु
न न किन्तु यदि तद् अपि यदि चिन्तनम् अस्ति चेत् तदा तन्तु तन्तोः वर्णः कः रूपं किम् इत्युक्ते चित्रवर्णम् इति प्रायशः उत्तरं भवति तदा
भगिनी उक्तवती खलु तदर्थम् अहं वदामि न भवति इति
मम 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 इति अहं किं वदामि तत्र वर्णद्वयं मिश्रित्वा वयं नूतनवर्णं कुर्मः किल तत्र एव षट् वर्णाः सन्ति तान् विहाय अपि बहवः वर्णाः सन्ति यथा ओरेञ्ज् अस्ति वयं
किन्तु
हरितवर्णमिश्रणं कृत्वा नूतनं वर्णं
तत्र एतत् सर्वं जानन्ति साधारणरीत्या यथा तत्र क्रियाः बहवः सन्ति पञ्चक्रियाः
चित्र इति न अस्ति वा नास्ति इति मम प्रश्नः
प्रश्नः उत्तमः भगिनि अतः तत्र सर्वदा तत्र नन्यायिकाः किं कुर्वन्ति इत्युक्ते तत्र बहुत्र एतद् एतादृशचिन्तनं तेषां भवति नाम यत्र कस्यापि विभागः कुर्मः ते किं कुर्वन्ति प्रथमः प्रथमविधम् एतदस्ति द्वितीयविधम् एतदस्ति तृतीयविधं किमस्ति यत् प्रथमविधं नास्ति द्वितीयं विधं नास्ति तत्सर्वं तृतीयविधम् इति यथा कर्मणि तत्र पञ्चकर्माणि सन्ति इति अस्तु खलु तत्र कुञ्चनम् आकुञ्चनम् उत्क्षेपणं किमपि आसीत् खलु अपि गमनम् इति क्रिया आसीत् खलु पञ्चकर्माणि एव सन्ति इति उक्तं किन्तु तत्र किम् अस्ति तेषां चिन्तनं यद् उत्क्षेपणं नास्ति आक्षेपणं यत् तत्र चतुर्विधकर्म यत् नास्ति तत्सर्वं गमनक्रिये तस्य अन्तर्भावः इति तावदेव अतः तत्र यत् चित्रं चित्रः इति अस्ति तद् यत् सर्वं यत् षण्णां तत्र चित्राणाम् अन्तर्भावः न कर्तुं शक्नुमः तत्सर्वं चित्ररूपम् इति तावदेव यतोहि तत्र सर् तत्र यद्यद् अस्ति त तस्य सर्वस्य तत् सम्पूर्णरीत्या उल्लेखः तत्र तस्य विवरणं न कर्तुं शक्नुमः खलु. लोके किं किम् अस्ति इति तत्र प्रत्येकस्य विवरणं न कर्तुं शक्नुमः खलु. तदर्थमेव तत्र विभागः खलु, नाम पदार्थविभागः, तत्र द्रव्यं कर्म इति खलु. हा, अतः तत्र ते अवगच्छन्ति अस्तु एतस्य महत्वम् अस्ति, यद् अन्यत् किमपि अस्ति तत् अस्मिन् भागे स्थापयामः, तावदेव.
तर्हि आचार्य, पाटलवर्णः चित्रपदे एव अन्तर्भूतः इति खलु?
किं
पाटलवर्णः चित्र पाटलवर्णः यदि पश्येम तर्हि तत्र चित्र इति पदे एव अन्तर्भूतम्
इति मम अवगमनं भगिनि. यद् यद् शुक्ल नास्ति, तत्र पीत नास्ति, तत्सर्वं तत्र चित्रे तस्य अन्तर्भावः इति. समीचीन. इदानीं तत्र हा इदानीं तत्र नूतनविषयः आयाति इदानीं. अस्तु पश्यामः तर्हि. अस्तु समीचीनम्. अस्तु अग्रे सरामः तर्हि. तत्र शुभदा भगिनी. अस्तु अस्तु अशोक महोदय अग्रे पठति वा इदानीम्.
अस्तु महोदय. सूक्तिललन्तिका व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति पदार्थनिरूपणं द्वे पदार्थ विषयस्य विवरणं दत्तं. व्याप्यवृत्तित्वम् इति अव्याप्यवृत्तित्वम् इति. नव्यनैयायिकाः न इदं सहन्ते, तेषाम् अयम् आशयः. वृक्षे संयोगसम्बन्धेन कपिः अस्ति चेत् सः तस्मिन् वृक्षे अग्रे मूले कस्याञ्चित् शाखायां वा भवति, न तु सर्वेषु अवयवेषु कपिः भवति. वृक्षगतरूपं तु सर्वेषु अवयवेषु वर्तते इति तत् व्याप्यवृत्ति इति उच्यते. कपिः तत् संयोगः वा न सर्व अवयवेषु वर्तते इति कपिः कपिसंयोगः वा अव्याप्यवृत्तिः इति उच्यते. अव्याप्यवृत्तित्वम् इत्यस्य स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इत्यर्थः. नैयायिकाः कश्चित् न सहन्ते, कश्चित् न सहन्ते इति न इदम् इदं कः इति अहं
प्रश्नः नाम तत्र यत् वैशेषिकाः तत्र वैशेषिकानां चिन्तनं यदस्ति नाम यत् उदाहरणम् एतत् सर्वं दत्तमस्ति खलु चित्ररूपं किम् इति नाम यत्र अवयवाः सन्ति अवयवेषु परस्परभिन्नरूपं वर्तते तदा ते तेषां चिन्तनमस्ति अस्तु चित्रम् इति रूपं तदा स्वीकुर्मः. यतोहि तत्र पीतरूपतन्तवः अपि अस्ति, श्वेतरूपतन्तवः अपि अस्ति. तर्हि तत्र सर्वं श्वेतरूपम् इति न वक्तुं शक्नुमः खलु, यतोहि पीतरूपतन्तवः सन्ति. पीतरूपम् इति अपि न वक्तुं शक्नुमः यतोहि श्वेतरूपतन्तवः सन्ति. अतः नूतनम् इति चिन्तयामः इति ते चिन्तितवन्तः, किन्तु नव्यनैयायिकाः इदं न सहन्ते.
अस्तु महोदय.
तेषां मतं भिन्नं. किमर्थम् अपि कथम् इति इदानीम् उच्यते.
तेषाम् आशयः वक्ष्यमाणः
तेषां नाम
नव्यनैयायिकाः नाम
आशयः.
अतः उदाहरणं दत्तं. वृक्षे कपिः अस्ति, संयोगसम्बन्धेन अस्ति, किन्तु वृक्षस्य सर्वभागे नास्ति. वृक्षे अग्रे अस्ति, मूले अस्ति, प्रायः अग्रे अस्ति, प्रायः मूले अस्ति, द्वौ द्वयोः स्थाने न तिष्ठति.
नास्ति, एकस्मिन् स्थले एव तत्र वृक्षस्य एकस्मिन् भागे अथवा कुत्रापि भवति कपिः.
न तु सर्वेषु अवयवेषु कपिः भवति
खलु. तत्र अवयवाः नाम तत्र मूलभागे वा अथवा शाखाः वा, तत्र अनेके अवयवाः सन्ति, किन्तु अवयवेषु एकस्मिन् अवयवे वा अथवा अवयवद्वये तत्र कपिः भवेत् सयो इति. अग्रे
वृक्षगतरूपं तु सर्वेषु अवयवेषु वर्तते इति तत् व्याप्यवृत्ति इति उच्यते. यदि वृक्षस्य रूपं सर्वेषु वृक्षेषु सर्वेषु सर्वस्थाने वर्तते, अतः तद् व्याप्यवृत्ति इति उच्यते.
इदानीं तत्र यथा पूर्वम् उदाहरणं किम् आसीत्, अवयवेषु तत्र भिन्नभिन्न अनेके अवयवाः सन्ति, अवयवेषु परस्परभिन्नरूपम् अस्ति इति स्वीकृतं खलु पूर्वम्. इदानीं वयम् अस्माकं चिन्तनमस्ति वृक्षे वृक्षगतरूपं, नाम वृक्षे यद्रूपम् अस्ति तत् सर्वेषु अवयवेषु तदेव रूपं भवति चेत् वयं किं वदामः, व्याप्य वृत्तिः इति वदामः.
कपिः तत् संयोगः वा न सर्व अवयवेषु वर्तते इति. कपिः कपिसंयोगः वा अव्याप्यवृत्तिः इति उच्यते. कपिः सर्वस्थाने नास्ति, सर्व अवयवेषु वृक्षे नास्ति, अतः अव्याप्यवृत्तिः इति उच्यते. तथैव कपिसंयोगः अपि सर्व अवयवेषु नास्ति, अतः कपि संयोगः अपि अव्याप्तवृत्ति तस्य अव्याप्तवृत्ति
इति वदामः. उत्तमं महोदय, अस्तु इदानीं
अव्याप्तवृत्तित्वम् इत्यस्य स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इत्यर्थः. स्वभावः इति पदम् अहं जानामि, स्वाभाव इति पदमस्ति.
यथा भवान् उक्तवान् नाम स्वयोगः अभावः.
अस्तु अस्तु, स्व अभावः अस्तु,
नाम स्वस्य अभावः, नाम पुस्तकं पुस्तकस्य अभावः.
अस्तु,
इदानीं तत्र कपिसंयोगः इति स्वीकरोतु. तत्र कपिसंयोगः इदानीं तत्र सर्वत्र नास्ति खलु, कपिसंयोगः वृक्षे सर्वत्र नास्ति. संयोगः कुत्रचित् अस्ति, कुत्रचित् अपि नास्ति खलु. तर्हि कपिसंयोगः अभावः तत्र वृक्षे वर्तते खलु. तर्हि तर्हि कपिसंयोग अभावस्य अधिकरणं वृक्षः इति वक्तुं शक्नुमः खलु.
अस्तु आम् आम् आम्
इदानीं संयोगस्य कपिसंयोगस्य कपिसंयोग अभावस्य अधिकरणं वृक्षः, तस्मिन् वृक्षे स्वस्य नाम
अभावस्य
न इदानीं स्व इत्युक्ते कपिसंयोगः, स्व इत्युक्ते एकवारं लिखामः महोदय, तदा एव तत्र स्पष्टं भवति. स्व इति अत्र किं चिन्तयामः वयं, कपिसंयोगः इति चिन्तयामः, कपिसंयोगः इति स्व इति चिन्तनं. तर्हि स्व अभावः नाम कपिसंयोगस्य अभावः. अभावस्य अधिकरणं वृक्षः,
वृक्षः
स्वस्य तत्र
संयोगस्य
संयोग अभावस्य अधिकरणं वृक्षः. इदानीं स्वस्य नाम संयोगस्य विद्यमानत्वं नाम
तदस्ति इति
वर्तते, तदपि वर्तते, संयोगः अपि वर्तते, संयोगस्य अभावः अपि
अस्तु अस्तु
अधिकरणे वर्तते चेत् अव्याप्य वृत्तिः
अस्तु.
अव्याप्य वृत्तिः नाम सर्वत्र नास्ति, अतः कुत्रचित् अस्ति कुत्रचित् नास्ति. नैयायिकरीत्या कथं वदामः, यस्य अभावस्य स्वस्य अभावस्य अधिकरणे स्वस्य अपि विद्यमानत्वम्.
अस्तु महोदय.
अस्तु उत्तमम्. इदानीं तत्र धन्यवादः महोदय. इदानीं तत्र नूतनतया तत्र कापि आगता इदानीं नास्ति, किन्तु हा चन्द्रमती भगिनी, तत्र व्याप्यवृत्तिः अपि अव्याप्यवृत्तिः, तत्र अव्याप्यवृत्तिः नाम किम् इति किञ्चित् वदति वा?
अव्याप्यवृत्तिः कुत्रचित् अस्ति कुत्रचित् नास्ति, संयोगः कपि संयोगः वृक्षे कुत्रचित् अस्ति कुत्रचित् नास्ति.
तर्हि तत्र स्व अत्र स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः इति तस्य वाक्यस्य किञ्चित् विश्लेषणं करोतु.
स्व इत्युक्ते कविसंयोगः, कविसंयोगस्य स्वस्य इत्युक्ते कविसंयोगस्य अधिकरणता वृक्षे कुत्रचित् अस्ति किन्तु कुत्रचित् नास्ति.
अस्तु अस्तु, एकमेकं पदं स्वीकृत्य वदतु तर्हि. तत्र स्व इत्युक्ते कपिसंयोगः, समीचीनं.
स्व इत्युक्ते कपिसंयोगः, स्वस्य अभावः कपिसंयोगस्य अभावः स्वाभावः.
संयोगस्य कपिसंयोगः कुत्र अस्ति अस्मिन् उदाहरणे? वृक्षे अस्ति वा?
वृक्षस्य शाखा एकस्मिन् शाखायाम् अस्ति.
अत्र प्रायः अत्र संयोगस्य अभावः अस्ति खलु, अथवा अस्यां
शाखायां अन्यशाखायाम् अभावः अस्ति.
अस्ति तर्हि तत्र वृक्षे अधिकरणे नाम वृक्षे संयोगस्य अभावः अस्ति वा?
वृक्षे एकस्मिन् भागे अस्ति एकस्मिन् भागे
नास्ति, अतः एव तत्र स्व अभावस्य नाम कपिसंयोगस्य अभावस्य अधिकरणं वृक्षम् इति वक्तुं वृक्षः इति वक्तुं शक्नुमः. तस्मिन्नेव वृक्षे स्वस्य नाम संयोगस्य अपि विद्यमानत्वं, नाम संयोगः अपि वर्तते संयोग अभावः अपि
वर्तते
वृक्षे वर्तते खलु
वृक्षे एव.
हा यथा अत्र चित्रे दत्तमस्ति, मूले कपि संयोग अभावः मूले अस्ति अत्र वर्तते, तर्हि वृक्षे संयोगः अपि अस्ति संयोगस्य अभावः
अस्ति,
अतः स्वाभावस्य नाम संयोगस्य अभावस्य अधिकरणे वृक्षे स्वस्य नाम कपिसंयोगस्य विद्यमानत्वम् अपि अस्ति खलु.
स्वाभावस्य अधिकरणता अस्ति
वृक्षे स्वस्य अपि
विद्यमानत्वम् अपि अस्ति
स्वस्य इत्युक्ते कस्य?
कविसंयोगस्य.
हा संयोगस्य विद्यमानत्वमपि अस्ति
अभावस्य अधिकरणता अपि अस्ति
न अभावस्य विद्यमानत्वमपि अस्ति खलु
अभावस्य विद्यमानत्वम् अस्ति
अधिकरणे नाम यत्र अस्ति संयोगस्य अभावः कुत्र अस्ति वृक्षे अस्ति खलु वृक्षे अस्ति इत्युक्ते वृक्षं वृक्षः एव अधिकरणं खलु अधिकरणे नाम वृक्षे
स्वस्य अधिकरणमपि अस्ति अभावस्य विद्यमानत्वम् अपि
तत्र प्रायश स्पष्टता अस्ति न वा इति मम किञ्चित् मनसि अस्ति भगिनि, तर्हि तत्र स्व अभावः इत्युक्ते एकवारं कृपया वदतु स्वभावः।
स्व अभावः इत्युक्ते कापि संयोग अभावः।
अस्तु, तस्य अधिकरणं किम् अस्ति अत्र अस्मिन् उदाहरणे?
तत् मूले
मूलम् इति अथवा वृक्षः इति चिन्तयतु, वृक्षः इति चिन्तयतु, वृक्षस्य मूलम् अथवा साक्षात् वृक्षः इति चिन्तयतु। तर्हि अधिकरणं किमस्ति? वृक्षः।
वृक्षः
कस्य अधिकरणं? स्वाभावस्य नाम
कापि संयोग
वृक्षः। इदानीं वृक्षे कपिसंयोगः अपि अस्ति वा?
अस्ति।
कपिसंयोगस्य विद्यमानत्वम् अस्ति वा वृक्षे?
अस्ति।
अतः एव स्वस्य विद्यमानत्वं नाम कपिसंयोगस्य
विद्यमानत्वं वृक्षे अस्ति। स्व अभावस्य अधिकरण
इदानीम् अधिकरणं त्यजतु, विद्यमानत्वम् इति चिन्तयामः, तर्हि कपिसंयोगस्य विद्यमानत्वम् अस्ति अपि कपिसंयोग अभावस्य अपि अस्ति खलु?
अभावस्य विद्यमानत्वं वा?
अभावस्य विद्यमानत्वम् अस्ति वा वृक्षे?
वृक्षे
वृक्षे अस्ति इति नाम वृक्षः अधिकरणं तावदेव खलु? तर्हि स्वाभावस्य विद्यमानत्वं वृक्षे अस्ति, तस्मिन्नेव वृक्षे संयोगस्य विद्यमानत्वम् अपि अस्ति। अत्र किञ्चित् विचित्रं वैचित्र्यम् अस्ति खलु भगिनि, यतोहि अभावः अपि तत्र नाम पुस्तकम् अपि पुस्तकस्य अभावः तत्र वयम् उक्तवन्तः खलु, तत्र विरोधी भावः वर्तते तयोः मध्ये इति खलु? किन्तु अत्र एकस्मिन् वृक्षे कपिसंयोगः अपि वर्तते, कपिसंयोगस्य अभावः अपि वर्तते खलु? अतः अव्याप्यवृत्तिः, अव्याप्यवृत्तिः नाम वृत्तित्वं, वृत्तिः नाम वृत्तित्वं कुत्र कुत्र वर्तते इति, तत् अव्याप्यवृत्तिः नाम सर्वत्र न वर्तते वृक्षे, सर्वत्र न वर्तते इत्युक्ते अव्याप्यवृत्तिः। अव्याप्यवृत्तिः नाम वृक्षे
सर्वत्र न वर्तते, वृक्षे सर्वत्र न वर्तते।
व्याप्यवृत्तिः इत्युक्ते
वृक्षे सर्वत्र वर्तते,
वर्तते इति एव तत्र अव्याप्यवृत्तिः,
व्याप्यवृत्तिः
तावदेव अस्ति। समीचीनम्, अग्रेष्यामः। अस्तु, धन्यवादः भगिनि। अस्तु, इदानीं तत्र अग्रे तत्र शुभदा भगिनी पठितुम् इच्छति वा अग्रे?
आं महोदय, पठामि। एकस्मिन् एव वृक्षरूपे अधिकरणे, एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्ति शाखायां, तस्य अभावः तु मूलदेशवर्ति शाखायाम्। एवञ्च अग्रं कपिनिष्ठ आधेयता निरूपिता या वृक्षनिष्ठाधिकरणता तस्याः अवच्छेदकम् इत्युच्यते। मूलञ्च कपिसंयोगभावनिष्ठाधेयता निरूपित अधिकरणतावच्छेदकम्। तर्हि एकस्मिन्नेव वृक्षः, एकः एव वृक्षः अस्ति, तस्मिन्नेव वृक्षे यः अधिकरणमस्ति, अधिकरणरूपी वृक्षः इति अस्ति, वृक्षे अधिकरणता
रूपम् अधिकरणं नाम तत्र अत्र अधिकरणं वृक्षः एव इति समीचीनं.
तत्र कपिः अस्ति, कपिः कुत्र अस्ति चेत् अग्रे अग्रदेशवर्ती शाखायाम् उपरि अस्ति,
उपरि.
परन्तु कपिः तस्य अभावः तु मूलदेशी देशवर्ती शाखायाम् अस्ति. तत्र मूले ये यः शाखा इति अस्ति, मूलम् इति तत्र दर्शितमस्ति चित्रे, तत्र तु तस्य अभावः अस्ति. कपिः तत्र नास्ति इति तस्य अभावः इति अस्ति. तर्हि एवञ्च अग्रं कपिनिष्ठा
अग्रं नाम अग्रदेशं. तत्र अग्रं नाम अग्रदेशं किं भवति? अग्रदेशं भवति
कपिनिष्ठ आधेयता निरूपिता या वृक्षनिष्ठाधिकरणता तस्याः अवच्छेदकम् इति उच्यते.
नाम तत्र कपिनिष्ठ आधेयता निरूप तत्र कपिनिष्ठ आधेयतायाः अवच्छेदकम् अथवा वृक्षनिष्ठ अधिकरणतायाः अवच्छेदकम् इति उच्यते. किम् उच्यते? अग्रदेशम्. अग्रदेशम् अवच्छेदकम् इति उच्यते. कस्य अवच्छेदकम् अथवा कस्याः अवच्छेदकम् इत्युक्ते वृक्षनिष्ठ अधिकरणतायाः अवच्छेदकम् अथवा कपिनिष्ठ आदेयतायाः आदेयता निरूपिता या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकं नाम
तस्य विशेषणमिति.
हा तत्र हा समीचीनं. तर्हि अधिकरणतायाः अवच्छेदकम् अस्ति अग्रदेशं. नाम अवच्छेदकं वयं दृष्टवन्तः, नाम सीमां रचयति, अत्र एव अस्ति इति वदति खलु. तर्हि अग्रदेशम् अधिकरणतायाः अवच्छेदकम्. अधिकरणता केवलम् अग्रदेशे एव अस्ति, अतः अग्रदेशं तस्याः अवच्छेदकं भवति अधिकरणतायाः, खलु?
आम् आं महोदय.
हा तत्र कपि कपिः अस्ति, तस्मिन् आदेयता अस्ति, वृक्षे अधिकरणता अस्ति, किन्तु अधिकरणता सर्वत्र नास्ति. कुत्र अस्ति इत्युक्ते अधिकरणतायाः अवच्छेदकं किम् इत्युक्ते अस्तु अग्रदेशम् अवच्छेदकं. तेन वयं जानीमः सीमितं, यत्र अग्रदेशम् अस्ति तत्र एव तत्र अधिकरणता अस्ति इति. अग्रे मूलं च मूलदेशं
मूलं च कपि कपिसंयोगभाव कपिसंयोगाभाव
संयोगाभावः
मूलं च कपिसंयोगाभावनिष्ठा आधेयता निरूपित अधिकरणता अवच्छेदकम्. अत्र यत् वयं दृष्टवन्तः अग्रदेशम् इति कपिनिष्ठ आधेयता निरूपिता वृक्षनिष्ठाधिकरणतायाः अवच्छेदकम्, तादृशम् एव मूलम् इति अभावस्य तत्र निरूपणमस्ति. तत् मूले तु कपिसंयोग कपिसंयोगस्य अभावः अस्ति, अतः कपिसंयोगाभावनिष्ठा आधेयता, यत्र कपिसंयोगाभाव इति आधेयता अस्ति, तेन तया निरूपिता अधिकरणता या वृक्षे वर्तते तस्य अवच्छेदकं भवति. तत्र यदा भवान् उक्तवन्तः तत्र सीमा इति निर्दिष्टं भवति, कपिसंयोगस्य अभावः कुत्र वर्तते इति दर्शितव्यं चेत् तत्र मूले भवति इति तस्य आशयः भवति.
अतः तत्र मूलदेशे एव भवति इति तदा वयं कथं वदामः, अस्तु मूलदेशे भवति, तर्हि कपिसंयोगस्य अभावः मूलदेशे एव भवति अथवा वृक्षे भवति, किन्तु मूलदेशे एव भवति. किन्तु प्रथमतया तत्र कपिसंयोग अभावः वृक्षे भवति इति वदामः, तर्हि कपिसंयोग अभावे किं भवति नाम, यत्र वयं वदामः एकः अन्यस्मिन् वर्तते, यथा तत्र किम् आसीत्, तत्र आसन्दः आसीत् अपि तत्र कः आसीत् आसन्दे तत्र प्रथमचित्रम् अस्माकं यत्र हा यज्ञदत्तः धन्यवादः धन्यवादः हा यज्ञदत्तः आसन्दे वर्तते तर्हि यज्ञदत्ते किमस्ति आदेयत अस्ति आसन्दे अधिकरणः तथैव कपिसंयोग अभावः वृक्षे वर्तते इति वदामश्चेत् संयोगे असंयोगस्य अभावे आदेयता अस्ति अपि वृक्षे अधिकरणता अतः अपि तयोः मध्ये निरूप्यनिरूपकभावः वर्तते अतः इदानीं तत्र अधिकरणता तत्र संयोग अभावनिष्ठ आदेयतनिरूपित अधिकरणता अपि अस्ति वृक्षे अस्ति अपि तत्र कपि संयोग निष्ठ आदेयतनिरूपित अधिकरणता अपि अस्ति वृक्षे खलु तर्हि अधिकरणता द्वयमस्ति तयोः भेदः कः इति प्रश्नः उदेति खलु तर्हि तर्हि तत्र
परन्तु तस्य निरूपणं तु
नाम एकमस्ति तत्र संयोगस्य अन्यत् अपि तत्र संयोग अभावनिश्च आदेयतया आदेयता तत्र आदेयता का इति दृष्ट्वा वक्तुं शक्नुमः अथवा देशं मूलदेशम् अग्रदेशम् इति अपि दृष्ट्वा भिन्नमिति वक्तुं शक्नुमः अतः तत्र अवच्छेदकं नाम केन भेदः वक्तुं शक्नुमः अथवा केन तत्र सीमा अपि भवति इति अपि वक्तुं शक्नुमः तत्र देशम् इति स्वीकृतं तेन तदेव अवच्छेदकं सीमां रचयति देशं सीमां रचयति अधिकरणतायाः सीमां रचयति इति इति एतावत् अस्ति समीचीनं भगिनि हा अस्तु अस्तु इदानीं तत्र तावत् अस्तु समयः अपि जातः किन्तु समीचीनम् अतः तत्र व्याप्यवृत्तिः अव्याप्यवृत्तिः इति तत्र तयोः मध्ये कः भेदः व्याप्यवृत्तिः नाम सर्वत्र वर्तते अव्याप्यवृत्तिः नाम एकस्मिन् स्थले अस्ति किन्तु सर्वत्र नास्ति अपि तत्र चित्रम् इति रूपं स्वीकरणीयम् अथवा तत्र येन रूपेण दत्तं नाम यत् विवरणं यद्दत्तम् अस्ति तदेव समीचीनम् इति नास्ति वैशेषिकाः तादृशं चिन्तयन्ति समीचीनम् इति चिन्तयन्ति किन्तु नव्यनैयायिकाः तत् न अङ्गीकुर्वन्ति अतः तत्र किमर्थं ते न अङ्गीकुर्वन्ति अपि तेषां चिन्तनं किम् इति अग्रे पश्यामः अपि एषः विषयः तत्र वृत्तित्वं व्याप्यव्यापकभावः न्यायशास्त्रे सर्वत्र भवति तत्र धूमः वह्निः एतत् सर्वं तत्र अनुमानप्रसङ्गे व्याप्यव्यापकभावः यदस्ति तस्य महत्त्वं बहु किमपि अस्ति अतः तत्र एतत् पठित्वा तदनन्तरं तत्र स्वरूपमहोदयस्य करत्पत्रमपि भवति अस्मिन् विषये अतः तदपि पठामः अस्तु तर्हि समीचीनमस्ति इदानीं विरमाम धन्यवादः नमस्कारः अग्रिमे वर्गे अग्रिमसप्ताहे मिलामः इदानीं तत्र मध्ये मध्ये तत्र क्लेशः न भवति प्रत्येकस्मिन् सप्ताहे वर्गः भवति अस्तु समीचीनं धन्यवादः नमस्कारः
धन्यवादः
धन्यवादः।